इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् क्वाड इति समूहः शान्त्यै प्रगत्यै समृद्ध्यै च भारत प्रशान्त क्षेत्रयोः कृते प्रतिबद्धः अस्ति। अमेरिकादेशस्य डेलावोर नगरे क्वाड नेतृणां सम्मेलनस्य औद्घाटनिक सम्भाषणे प्रधानमन्त्रिणा उक्तं यत् क्वाड इति अत्र स्थातुं सहायतां कर्तुं सहभागं कर्तुं पूरकं च भवितुमस्ति। श्रीमोदी अवदत् यत् क्वाड शिखर सम्मेलने तस्मिन् समये भवति यदा विश्वं समाह्वानैः संघर्षैः च आच्छादितं वर्तते, तथा च क्वाड देशाः एकत्रिताः सम्भूय प्रजातान्त्रिक मूल्यानाम् आधारेण कार्यं सम्पादनं सम्पूर्ण मानवतायाः कृते अतीव महत्वपूर्णम् अस्ति। प्रधानमन्त्रिणा बलं प्रदत्तं यत् क्वाड समूहः कस्यापि विरुद्धं नास्ति, तथा च नियमाधारित अन्ताराष्ट्रिय व्यवस्थायाः सम्प्रभुतायाः प्रादेशिक अखण्डतायाः च सम्मानं सर्वेषां विषयाणां शान्तिपूर्णरीत्या समाधानं च समर्थयति। प्रधानमन्त्रिणा उक्तं यत् क्वाड देशाः मिलित्वा स्वास्थ्यं सुरक्षा महत्वपूर्णाः उदीयमानाः च प्रौद्योगिकी जलवायु परिवर्तनं क्षमता निर्माणं च इत्यादिषु क्षेत्रेषु अनेके सकारात्मक समावेशिनः च उपक्रमाः सम्पादिताः। श्रीमोदी 25-2000 वर्षे भारते क्वाड नेतृणां शिखर सम्मेलनस्य आयोजने स्वस्य प्रसन्नतां प्रकटितवान्। क्वाड शिखर सम्मेलने भागं ग्रहणात् पूर्वं प्रधानमन्त्रिणा मोदिना गतरात्रौ डेलावेर नगरे ब्लूमिंगटन नगरे अमेरिकी राष्ट्रपतिना जो बाइडेन इत्यनेन सह द्विपक्षीय वार्ता कृता। भारतमेरिकादेशौ व्यापक वैश्विक रणनीति सहभागिताम् इतोपि सुदृढं कर्तुम् उभौ नेतारौ नूतनानि मार्गाणि चिह्नितवन्तौ। एकस्मिन् सामाजिक संजालीय सन्देशे प्रधानमन्त्रिणा उक्तं यत् वार्ता अत्यन्तं फलदायी अभवत्। भाजपेति दलस्य वरिष्ठः नेता तथा केन्द्रीय गृहमन्त्री अमितशाहः ह्यः उक्तवान् यत् जम्मूकश्मीरे प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे आतंकवादात् मुक्तिं प्रति अभूतपूर्व परिवर्तनम् अभवत्। पूंछमण्डलस्य मेंढरे एकां जनसभां सम्बोधयन् श्रीशाहः उक्तवान् यत् जम्मूकश्मीरस्य यूनां हस्तेषु सम्प्रति पाषाणखण्डस्य स्थाने लैपटॉप इति अंकसंगणकयन्त्राणि सन्ति। आम आदमी पार्टीति दलस्य वरिष्ठ नेत्री आतिशी ह्यः दिल्ल्याः मुख्यमन्त्रित्वेन शपथम् अगृहीत। दिल्ल्याः मुख्यमन्त्री आतिशी स्वकीयस्य नूतनेभ्यः मन्त्रिभ्यः विभागान् आवंटितवती। नूतन मन्त्रिमण्डले सम्प्रति मुख्याधिकारिणा सह 5 सदस्याः सन्ति। मुख्यमन्त्री आतिशी शिक्षा विद्युत वित्त विषयान् च समेत्य 13 विभागानां प्रमुखा भविष्यति। दिल्ल्याः मन्त्री सौरभ भारद्वाजः स्वास्थ्य नगर विकासः समाजकल्याणं च समेत्य 8 विभागानां प्रभारं धारयिष्यति। गोपालरायः सामान्य प्रशासनं पर्यावरणं वन वन्यजीवं च समेत्य 3 विभागाः धारयिष्यति। कैलास गहलोताय परिवहन प्रशासन सूचना प्रविधि गृह महिला एवं बाल विकास विभागम च प्रदत्तमस्ति। मुकेश अहलावत इत्यस्मै 5 विभागाः आवंटिताः सन्ति, तथा च इमरान हुसैनः खाद्य आपूर्ति विभागस्य च दायित्वं निर्वहिष्यति। राजनिवासे आयोजिते शपथ ग्रहण समारोहे उपराज्यपालेन विनय कुमार सक्सेना इत्यनेन आतिशी तस्याः मन्त्री परिषदः सदस्याः च पदगोपनीयतायै प्रतिज्ञापिताः। इति वार्ताः।